इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्य वार्ताः। जम्मू कश्मीर हरियाणा राज्ययोः विधानसभा निर्वाचनाय प्रचाराभियानं सजवं प्रवर्तते। वाणिज्य उद्योग मन्त्रालयेन उक्तं यत् उपभोक्तृभ्यः समुचित मूल्ये पलाण्डोः उपलब्धतां सुनिश्चेतुं प्रशासनं नूतन रणनीतिं स्वीकुर्वत् अस्ति। द्विसहस्राधिक चतुर्विंशतितम वर्षस्य इफ्फी इत्यसमवायेन बेस्ट डेब्यू इंडियन फिल्म सेक्शन अर्थात सर्वश्रेष्ठ पदार्पण भारतीय चलचित्र अनुभागः इति नामकः नूतनः प्रभागः प्रारब्धः। अपि च पञ्चचत्वारिंशत्तमं फिडे शतरंज ओलंपियाड प्रतिस्पर्धायां भारतस्य महिला शतरंज दलेन हंगरीदेशे स्विट्जरलैंड दलं 3-1 इति अंक अंतरालेन पराजितम्। अथ वार्ताः विस्तरेण। जम्मू कश्मीर हरियाणा राज्ययोः विधानसभा निर्वाचनाय प्रचाराभियानं सजवं प्रवर्तते। प्रधानमन्त्री नरेन्द्र मोदी अद्य जम्मू कश्मीरस्य डोडा क्षेत्रे एकां नैर्वाचनिक जनसभां सम्बोधितवान्। तत्र असौ विपक्षदलानि आलोचयन् प्रोक्तवान् यत् जम्मू कश्मीरोऽयम् अधुना विकासस्य नवीनां गाथां लिखति। श्रीमोदी अवदत् यत् निर्वाचनमिदं जम्मू कश्मीरस्य भाग्यं निर्धारणं करिष्यति, सममेव एकस्य सुरक्षित क्षेत्रस्य अपि निर्माणं करिष्यति। जम्मू कश्मीरे विधानसभा निर्वाचनस्य प्रथमचरणाय चतुर्विंशतिः विधानसभासनेभ्यः मतदानम् अस्य मासस्य 18 दिनांके भविष्यति। अस्मिन्नेव क्रमे हरियाणा प्रदेशे एकस्मिन्नेव चरणे विधानसभा निर्वाचनाय प्रचाराभियानं सजवं प्रवर्तते। अस्मिन् प्रदेशे 90 आसनेषु विधानसभा निर्वाचनाय मतदानम् अक्टूबर मासस्य 5 दिनांके भविष्यति। वाणिज्योद्योग मन्त्रालयेन उक्तं यत् उपभोक्तृभ्यः समुचित मूल्ये पलाण्डोः उपलब्धतां सुनिश्चेतुं प्रशासनं नूतनं रणनीतिं स्वीकुर्वत् अस्ति। वर्धमानानाम् आवश्यकता आपूर्ति स्थितीनां मूल्यप्रवृत्तीनां च आधारेण पलाण्डोः लक्षितांशीनां च आपूर्तिं सुनिश्चेतुं राज्यसर्वकारैः सह सम्मिल्य कार्यं क्रियते। अस्य मासस्य 5 दिनांके मोबाइल वैन इत्यत्र 35 रूप्यकाणां प्रति किलोग्राम मितेन उचित मूल्येन पलाण्डोः विक्रयः आरब्धः। दिल्ली मुंबई चेन्नई चेति नगरेषु विक्रयः आरब्धः। आगामिषु दिनेषु हैदराबाद बेंगलुरु कोलकाता इत्यादि नगराणि समेत्य सर्वेषु राज्यराजधानी क्षेत्रेषु अपि पलाण्डोः विक्रयणं विस्तारितं भविष्यति। युव चलचित्र निर्मातृणां कृते 2024 वर्षस्य भारतीय अन्ताराष्ट्रिय चलचित्र महोत्सव इत्यनेन बेस्ट डेब्यू इंडियन फिल्म सेक्शन अर्थात सर्वश्रेष्ठ पदार्पण भारतीय चलचित्र अनुभागः इति नामकः नूतनः प्रभागः प्रारब्धः। 55वें इफ्फी गोवा नगरे नवम्बर मासस्य 20 दिनांकतः 28 दिनांक पर्यन्तं प्रचलिष्यति। अनेन प्रभागमाध्यमेन इफ्फी देशस्य विभिन्नानि आख्यानानि चलचित्रशैलीनां च प्रदर्शयन्तः भारतीय पदार्पण चलचित्रेषु अपि केन्द्रीभवति। एतानि चयनानि यूनां चलचित्र निर्मातृणां रचनात्मक दृष्टिम् अद्वितीय कथा कथन पद्धतिं च प्रकाशयिष्यन्ति, नूतन प्रतिभां मञ्चं च प्रदास्यन्ति, उदयमान निर्देशकानां कार्यं च प्रदर्शयिष्यन्ति। सर्वोत्तम पदार्पण भारतीय चलचित्र विभागे सर्वोत्तमानि 5 प्रथमं चलचित्राणि चित्वा तेषां प्रदर्शनं च भविष्यति। बेस्ट डेब्यू इंडियन फिल्म सेक्शन इत्यस्य प्रविष्टयः अधुना उद्घाटिताः सन्ति। समापनतिथिः सितंबर मासस्य 23 अस्ति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी गुजरातस्य देहगाम क्षेत्रे निमज्जितानां जनानां मृत्युः सन्दर्भे दुःखं प्रकटितवान्। श्रीमोदिना पीडितानां कृते अनुग्रहराशेः अपि घोषणा कृता। एकस्मिन् सामाजिकान्तर्जालीय पटले प्रधानमन्त्रिणा समुदीरितं यत् प्रधानमन्त्री राष्ट्रिय आपदुद्धार कोषाद् प्रत्येकस्य मृतकस्य परिजनेभ्यः 2,00,000 रूप्यकाणाम् अनुग्रहराशि प्रदास्यते, व्रणितेभ्यः 50,000 रूप्यकाणि प्रदास्यते। अद्य प्रातः उत्तरी कश्मीरस्य बारामुला जनपदस्य क्रेरी क्षेत्रे संघर्ष विराम उल्लंघने त्रयः आतंकवादिनः मारिताः। आरक्षिबलानुसारं क्रेरी क्षेत्रस्य चाक ए तपर इत्यत्र सुरक्षाबलैः साकं आतंकवादिनां मध्ये संघर्षावधौ आतंकवादिनः मृत्युमुपगताः। मृतकानां आतंकवादिनां सम्प्रति अभिज्ञानान्वेषणकार्यं प्रचलति। कांग्रेस दलस्य अध्यक्ष मल्लिकार्जुन खड़गे हरियाणायाम आगामी विधानसभा निर्वाचनाय अद्य दलस्य त्रिवरिष्ठ नेतृन एआईसीसी वरिष्ठ पर्यवेक्षकत्वेन नियुक्तवान्। ते च सन्ति अशोक गहलोतः, अजय माकनः, प्रताप सिंहश्च। भारतीय ऋतु विज्ञान विभागेन अद्य पश्चिम बंगालस्य गंगाया तटीय क्षेत्रेषु अद्य ओडिशा झारखण्डयोः अतिवृष्टिः अनुमानम् कृतम्। आगामी द्विदिवसं यावत् छत्तीसगढ़े पूर्वी मध्य प्रदेशे च अतिवृष्टेः संभावना वर्तते। ऋतु विज्ञान विभागेन अग्रिमेषु अष्टचत्वारिंशत् होरासु अरुणाचल प्रदेश, उपहिमालय, पश्चिम बंगाल, सिक्किम, बिहार, उत्तर प्रदेश, नागालैंड, मणिपुर, मिजोरम, त्रिपुरा, असम, मेघालय प्रदेशे च अतिवृष्टिः अनुमानित। प्रधानमंत्री नरेन्द्र मोदी, गृहमंत्री अमित शाह, रक्षामंत्री राजनाथ सिंह च हिन्दी दिवसस्य अवसरे देशवासिनां कृते शुभकामनाः प्रदत्तवन्तः। श्रीमोदी हिन्दी भाषायाः महत्वस्य विषये एकं दृश्यश्रव्य लघु चलचित्र सन्देशम् अन्तर्जालीय माध्यमेन प्रख्यापितवान्। गृहमंत्री अमित शाह स्वसन्देशे उक्तवान् यत् राजभाषा विभागः शीघ्रमेव अष्टमी सूच्यां समाविष्टानां सर्वासु भाषासु हिन्दी भाषायाः अनुवादार्थम् एकम् अन्तर्जालीय तन्त्रांशं प्रारभते। अनेन अत्यल्पे काले आर्टिफिशियल इंटेलिजेंस इत्यस्य माध्यमेन सर्वासु भाषासु पत्राणि, भाषणानि च अनुवादिताः भविष्यन्ति। रक्षामंत्री राजनाथ सिंह अपि देशे विदेशे च हिन्दी भाषायाः राजभाषारूपेण स्वीकरणस्य महत्वस्य विषये एकं दृश्यश्रव्य माध्यमेन लघु सन्देशं प्रख्यापितवान्। अस्मिन् अवसरे केन्द्रीय गृहमंत्री अमित शाह अवदत् यत् देशस्य एकतायै हिन्दी भाषायाः अद्वितीया भूमिका अस्ति। असौ अवदत् यत् हिन्दी भाषायाम् अपि च अन्यभाषासु स्पर्धा नास्ति। अद्य नवदिल्ल्यां राजभाषा हीरक जयन्ती उत्सवे चतुर्थस्य अखिल भारतीय राजभाषा सम्मेलनस्य उद्घाटन सत्रे च सम्बोधयन् श्रीशाह अवदत् यत् सर्वासु भाषासु सुदृढीकरणेन एव सशक्तं राष्ट्रं निर्मातुं शक्यते। सः अवदत् यत् राष्ट्रिय शिक्षा नीतौ बालकाः स्वमातृभाषायां शिक्षां प्राप्नुयुः इति सुनिश्चित्य विशेषं बलं दत्तमस्ति। केन्द्रीय प्रशासनेन एकं महत्वपूर्णं पदक्षेपो विहितः यत्र बासमती व्रीहे निर्यातम् इतोऽपि वर्धनाय निर्यातस्य न्यूनतमं शुल्कम् अपाकरणस्य निर्णयो विहितः। पदक्षेपोऽयं व्यापारस्य चिन्ताः व्रीहे च पर्याप्त गृहोत्पादक उपलब्धता सुनिश्चितं करिष्यति। झारखण्डे करम पर्व अशेषैः राज्ये धार्मिकोत्साहेन हर्षेण च आमान्यते। पर्वेदं झारखण्डस्य सर्वाधिक लोकप्रिय उत्सवेषु अन्यतमं वर्तते। इदं पर्व सस्येन सह सम्बन्धितः अस्ति। सममेव करम वृक्षं प्रति श्रद्धांजलित्वेन कार्यं करोति। वृक्षोऽयं उर्वरता, समृद्धि, शुभस्य च प्रतीकम् अस्ति। आन्ध्रप्रदेशे केन्द्रीय नागरिक उड्डयन मंत्री के राममोहन नायडू अद्य विजयवाड़ाया गन्नवरम विमानस्थानके परियोजनानां उद्घाटनम् अकरोत्। यस्योद्देश्यं क्षेत्रस्य विमानमूल संरचनायाः वर्धनं वर्तते। विजयवाड़ा विमानस्थानकाय नूतन मार्गस्य उद्घाटनम् अकरोत्, येन यात्रिणां प्रापणे उल्लेखनीय परिष्कारस्य विश्वासो वर्तते। श्रीनायडूवर्येण विजयवाड़ा अथ च नईदिल्ली मध्ये एका नूतन इंडिगो उड्डयन सेवा अपि आरब्धा, येन राष्ट्रिय राजधान्या सह विमान सम्पर्कः वर्धितः। कृषि राज्यमंत्री रामनाथ ठाकुर उक्तवान् यत् भारतं खाद्य सुरक्षां पोषणं च विधाय विश्वस्य बृहत्तमं खाद्याधारितं सुरक्षा कार्यक्रम कार्यान्वितं करोति। अद्य ब्राजीलस्य क्यूबा नगरे G20 समवायस्य कृषि मन्त्रिणाम् उपवेशने श्री ठाकुर अवदत् यत् प्रधानमंत्री श्री नरेन्द्र मोदी इत्यस्य नेतृत्वे भारतं कृषि विकासाय प्राधान्यं ददाति। सः अवदत् यत् भारतस्य दृष्टिना केवलं उत्पादकतायाम् अपि तु आर्थिक सामाजिक पर्यावरण स्थायित्वं सुनिश्चेतुं कृषकाणां समृद्धिं वर्धयितुं विकासस्य व्यापक दृष्टिकोणं च केन्द्रीकर्तुं वर्तते। इति वार्ताः।